ओम नमो भगवते वासुदेवाय। अथ चतुर्थोऽध्यायः। श्रीशुक उवाच। तदा देवर्षि गन्धर्वा ब्रह्मेशान पुरोगमाः मुमुचुः कुसुमासारं संसन्तः कर्म तद्धरेः। नेदुर्दुन्दुभयो दिव्या गन्धर्वा ननृतृजगुः। ऋषयश्चारणा सिद्धास्तुष्टुवुः पुरुषोत्तमम्। योऽसौ ग्राहस वै सद्यः परमाश्चर्यरूपधृक् मुक्तो देवलशापेन हुः गन्धर्वसत्तमः। प्रणम्य शिरसाधीशमुत्तमश्लोकमव्ययम्। अगायत यशो धाम कीर्तन्यगुणसत्कथम्। सोऽनुकम्पितैशेन परिक्रम्य प्रणम्यतम्। लोकस्य पश्यतो लोकम् स्वमगान्मुक्तकिल्बिषः। गजेन्द्रो भगवत्स्पर्शात् विमुक्तो ज्ञानबन्धनात्। प्राप्तो भगवतो रूपम् पीतवासाश्चतुर्भुजः। स वै पूर्वमभूद् राजा पाण्ड्यो द्रविडसत्तमः। इन्द्रद्युम्नैति ख्यातो विष्णुव्रतपरायणः। स एकदाराधनकाल आत्मवान् गृहीतमौनव्रत ईश्वरम् हरिम्। जटाधरस्तापसाप्लुतोच्युतम् समर्चयामास कुलाचलाश्रमः। यदृच्छया तत्र महायशा मुनिः समागमच्छिष्य गणैः परिश्रितः। तम् वीक्ष्य तूष्णीमकृतार्हणादिकम् रहस्युपासीनम् ऋषिश्चुकोपः। तस्मा इमम् सापमदाद साधूरयम् दुरात्मा कृतबुद्धिरद्य विप्रावमन्ता विशताम् तमोन्धम् यथा गजस्तब्धमतिस्स एव। श्रीशुक उवाच। एवं शप्त्वा गतोऽगस्त्यो भगवान् नृपसानुकः। इन्द्रद्युम्नोऽपि राजर्षिर्दिष्टम् तदुपधारयन् आपन्नः कौञ्जरीम् योनिमात्मस्मृतिविनाशिनीम् हर्यर्चनानुभावेन यद्गजत्वेऽप्यनुस्मृतिः। एवम् विमोक्षगजयूथपमब्जनाभस्तेनापि पार्षदगतिम् गमितेन युक्तः। गन्धर्वसिद्धविबुधैरुपगीयमान कर्माद्भुतम् स्वभवनम् गरुडासनोऽगात्। एतन्महाराज तवेरितो मया कृष्णानुभावो गजराजमोक्षणम्। स्वर्ग्यम् यशस्यम् कलिकल्मषापहम् दुःस्वप्ननाशम् कुरुवर्यशृण्वताम्। यथानुकीर्तयन्त्येतच्छ्रेयस्कामाद्विजातयः शुचयः प्रातरुत्थाय दुःस्वप्नाद्युपशान्तये। इदमाह हरिः प्रीतो गजेन्द्रम् कुरु सत्तम। शृण्वताम् सर्वभूतानाम् सर्वभूतमयो विभुः। श्रीभगवानुवाच। ये माम् त्वाम् च सरश्चेदम् गिरिकन्दरकाननम् वेत्रकीचकवेणूनाम् गुल्मानि सुरपादपान् शृङ्गाणि इमानि धिष्ण्यानि ब्रह्मणो मे शिवस्य च क्षीरोदम् मे प्रियम् धाम श्वेतद्वीपम् च भास्वरम्। श्रीवत्सम् कौस्तुभम् मालाम् गदाम् कौमोदकीम् मम सुदर्शनम् पाञ्चजन्यम् सुपर्णम् पतकेश्वरम् शेषम् च मत्कलाम् सूक्ष्माम् श्रियम् देवीम् मदाश्रयाम् ब्रह्माणम् नारदमृषिम् भवम् प्रह्लादमेव च। मत्स्यकूर्मवराहाद्यैरवतारैः कृतानि मे कर्माण्यनन्तपुण्यानि सूर्यम् सोमम् हुतासनम्। प्रणवम् सत्यमव्यक्तम् गोविप्रान् धर्ममव्ययम् दाक्षायणीर्धर्मपत्नी सोमकश्यपयोरपि गङ्गाम् सरस्वतीम् नन्दाम् कालिन्दीम् सितवारणम् ध्रुवम् ब्रह्मऋषीन् सप्त पुण्यश्लोकांश्च मानवान्। उत्थाया पररात्रान्ते प्रयता सुसमाहिताः स्मरन्ति मम रूपाणि मुच्यन्ते येन सोऽखिलात्। ये माम् स्तुवन्त्यनेनाङ्गप्रतिबुद्ध्यनिषात्यये तेषाम् प्राणात्यये चाहम् ददामि विमलाम् मतिम्। श्रीशुक उवाच। इत्यादिश्य ऋषिकेशः प्रथमाय जलजोत्तमम् हर्षयन् विबुधानीकमारुरोह खगाधिपम्। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् अष्टमस्कन्धे गजेन्द्रमोक्षणम् नाम चतुर्थोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।